संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते संस्कृतमातरम्
वन्दे कृतमातरम्
नमो नमः
शब्दः
अद्य वयं रावण संवादप्रसङ्गे स्मः. अञ्जनेयः उद्यदत् इति आसीत्. तस्य पुनस्मारणं कृत्वा वयम् अग्रे गच्छामः. गतवर्गस्य श्लोक एकस्य श्लोकस्य च दीर्घतरगद्यभागस्य च कुर्मः.
सौण्ड् सम्यक् नास्ति भगिनि.
श्रूयते वा? समस्या नास्ति खलु?
सम्यक् न श्रूयते.
न श्रूयते वा?
श्रूयते.
ओहो,
ब्रेकिङ्ग् फील्ड् ब्रेकिङ्ग् आल्सो.
एकघण्ट पश्यामि. इदानीं कथं श्रूयते?
सम्यक्.
मीना भगिनि
किञ्चित् उत्तमः इदानीं.
अस्तु, आरम्भम्. आञ्जनेयः विस्मितः सन् रावणं दृष्टवान्. तत्र वयं पुनस्मारणे स्मः. सोऽपि प्लवङ्गमम् अभिवीक्ष्य समीरपुत्रं चित्रीयमाणहृदयः पिष्टाशनेन्द्रः कैलासशैलचलनागस्तिशापदायी
नन्दीश्वरस्वयमुपागत
सन् दृष्टवान्.
भगिनी सम्यक् न श्रूयते.
सम्यक् न श्रूयते.
सिग्नल् स्ट्रेङ्ग्
किमपि वदति वा? न श्रूयते एव.
किमपि न श्रूयते.
इदानीम् अहं दूरवाण्या करोमि. तद् सम्यक् श्रूयते वा इति पश्यतु.
अस्तु.
इदानीं कथं श्रूयते?
इदानीं सम्यक् अस्ति.
अस्तु, तर्हि दूरवाण्या एव अहं करोमि.
वदति वा, किमपि न श्रूयते.
इदानीं किमपि न श्रूयते.
सा अत्र नास्ति, पुनः आगच्छति.
नमस्ते
भगिनी. नमस्ते.
इदानीं श्रूयते वा?
श्रूयते.
एवं प्रहस्तेन विहित विविधानुयोगः सः प्रत्यभाषत. पृष्टानां प्रश्नानाम् उत्तरं यच्छन् सः साक्षात् रावणमेव सम्बोधितवान्. रावणम् उद्दिश्य एव स्वकथनम् आरब्धवान्. किम् उक्तवान्? दीर्घतरे गद्यभागे तत्र अस्ति रावणकथामेव श्रावयन् सः उक्तवान्, तादृशस्य श्रीरामस्य दूतः अहम् इति उक्तवान्. अहम् अर्हपति कुलतिलकस्य सत्यसन्धस्य पितृनियोगसमुपगत वनवासनिरतस्य इत्यादीनि वचनानि सन्ति, सुपरिचितानि वचनानि एव. अतः अहं तत्र बहु विस्तरेण न कथयामि, साक्षात् अग्रे गच्छामि. अद्यतनपाठभागः श्लोकः अस्ति, तस्य श्लोकं पठामि, भवन्तः अपि मया सह अनन्तरं वदन्तु. अनाकलोकपरिकीर्तितसच्चरित्रम्.
अनाकलोकपरिकीर्तितसच्चरित्रम्.
अत्रोपरुध्य रघुवंशपतेः कलत्रम्.
अत्रोपरुध्य रघुवंशपतेः कलत्रम्.
वैतानवेदि जनितं पवमान बन्धुम्.
वस्त्रेण बद्धुम् अविनीत कथं यतेथा.
यदा हनुमान् रावणम् उद्दिश्य कथयति साक्षात् एव स्वस्य वचनस्य आरम्भे एव सः तम् अविनीत इति उक्त्वा सम्बोधयति. तस्य धैर्यं पश्यामः. अहं सामान्यः दूतः, एषः राक्षसेन्द्रः इति तस्य भयमेव नास्ति. कारणं तादृशम् अपराधमपि कृतवान् अस्ति रावणः, अतः सः तम् अविनीत इति उक्त्वा सम्बोधयति. हे रावण, अविनीत रावण, त्वं यत् कर्म कृतवान् अस्ति तद् अपायकरं कर्म. कीदृशं कर्म इत्युक्ते, अग्निं कोऽपि स्वेन सह वस्त्रे बद्ध्वा स्थापयति किम्? न खलु. तथा सीतायाः अत्र स्थापनम्, अग्निमेव स्वसकाशे स्थापनमिव अपायकरं किमपि कार्यमस्ति, तत् मा कुरु. यदि एवं करोषि चेत् तव मरणं निश्चितम् अग्रे इति तं भाययति. पदच्छेदं पश्यामः. आनाकलोकपरिकीर्तितसच्चरित्रम् अत्र उपरुध्य रघुवंशपतेः कलत्रं पैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बन्धुम् अविनीत कथं यतेथाः. अत्र बन्धुम् इति पदं द्विवारम् आगतम्. एकत्र अव्ययमस्ति, तुमुन्नान्तम् अव्ययं बन्धुम् इति बन्धनं कर्तुं. द्वितीयम् अस्ति बन्धुः इति शब्दस्य प्रथमा विभक्तिः बन्धुः, द्वितीया विभक्तिः बन्धुम्. कवेः चमत्कृत्या तत् पदं युक्तरूपेण अत्र प्रयुक्तमस्ति. इदानीं पश्यामः एकैकस्य पदस्यापि अर्थं पश्यामः. आनाकलोकपरिकीर्तितसच्चरित्रम् इति प्रथमपदम्. नाकः इत्युक्ते स्वर्गः. आनाकलोक स्वर्गलोकपर्यन्तं, स्वर्गम् अभिव्याप्य इति अव्ययीभावसमासः. वयं रघुवंशे एतादृशसमासान् दृष्टवन्तः. आनाकलोक ते स्वर्गलोकपर्यन्तं यस्य कीर्तिः अस्ति, परिकीर्तितसच्चरित्रम्, यस्य चरित्रस्य, यस्य शीलस्य कीर्तिः अस्ति, तत् कलत्रं. कलत्रं नाम भार्या, नपुंसकलिङ्गशब्दः कलत्रम्. अतः एव आनाकलोकपरिकीर्तितसच्चरित्रम् इति पदं, विशेषणपदम्. अत्र लङ्कायाम् उपरुध्य, अत्र तस्याः बन्धनं कृत्वा, सीतादेव्याः अत्र तां बद्ध्वा, निबद्धां कृत्वा, रघुवंशपतेः कलत्रं, श्रीरामस्य भार्यां, वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बन्धुम् अविनीत कथं यतेथाः. वैतान इत्युक्ते यज्ञसम्बद्ध, वितान इत्युक्ते यज्ञ, वैतान तद्धितप्रयोगः. वैतानवेदी, वेदिः इति भूमिः, यत्र इष्टिकाः संस्थाप्य यत्र यज्ञस्य निर्माणं भवति, तद् वेदिः इति उच्यते. वैतानवेदी, वैतानवेदितः कः जायते, कः जनितः भवति? पवमानबन्धुः जनितः भवति. पवमानः इत्युक्ते पवनः. पवनस्य बन्धुः कः? मरुत्सखा इति वयं, मरुत्सखः इति दृष्टवन्तः वयं रघुवंशे. पवमानबन्धुः इत्युक्ते अग्निः. सामान्यतया एव अग्निः पवित्रः भवति. यज्ञसम्बद्धः अग्निः कथं भवेत्? किल पवित्रतमः भवेत्. तथा वैतानवेदिजनितं, यज्ञभूम्याम् उत्पन्नम्, उत्पन्नं कं? पवमानबन्धुम् अग्निं, मरुत्सखम् अग्निं, वस्त्रेण बन्धुं, वस्त्रेण पटेन संयोजयितुम्. विनीत, हे अदान्त, विनीतः इत्युक्ते यस्य इन्द्रियाणि वशे सन्ति, सः विनीतः भवति. अतः एव अदान्तः इति पदमुक्तम् अत्र सम्बोधनं. दुर्दान्त, अदान्त, कथं यतेथाः? तव इदं प्रयत्नं, तव इदं प्रयत्नम् अहं न अवगच्छामि. एतद् अकार्यम् अकार्यः अयं प्रयत्नः एतत् एतं प्रयत्नं त्यज परित्यज केन कारणेन एतादृशप्रयासं करोषि त्वम् इति आञ्जनेयः वदति कोऽपि अग्निं स्वसकाशे वस्त्रेण बद्ध्वा स्थापयति वा न खलु तथैव सीतायाः अत्र लङ्कायां स्थापनं तव कृते अत्यन्तम् अपायकरम् इति वदति आकाङ्क्षया पश्यामः अविनीत इति सम्बोधनं कथं यतेथाः प्रयत्नं कुर्याः यतेथाः यतते अत्र विधिलिङ्लकारः मध्यमपुरुषे एकवचनं त्वम् इति कर्तृत्वं कं बन्धुं त्वं यतेथाः पवमानबन्धुं कं बन्धुं तस्य बन्धनं कर्तुं पवमानबान्धवः तं पवमानबन्धुं बन्धु इति पदस्य बन्धुम् इति अव्ययं बन्धुम् इति द्वितीया विभक्तिः इति पदद्वये अर्थद्वये प्रयुक्त यमक अलङ्कारः द्विवारं प्रयुक्तम् इति कारणेन यमकम् एकवारमेव प्रयुक्तं भवति किन्तु अर्थद्वयं द्योतयति इति चेत् श्लेष केन बन्धुं केन वस्तुना बन्धनं करोति वस्त्रेण अग्नेः च अग्निः साक्षात् भस्मसात् करोति किल तत् वस्त्रं तथैव सीतायाः अत्र स्थापनं सा अग्निसदृशी त्वां भस्मसात् कुर्यात् सा इति तात्पर्यम् आञ्जनेयस्य किं कृत्वा बन्धुम् उपरुध्य अत्रैव तां निबद्धां कृत्वा अत्रैव स्थापयित्वा किम् उपरुध्य कलत्रम् यदि स्त्रीलिङ्गशब्दः प्रयुक्तः स्यात् तर्हि काम् उपरुध्य इति भवति अत्र नपुंसकलिङ्गशब्दस्य प्रयोगः अस्ति इति कारणेन किम् उपरुध्य कीदृशं कलत्रम् आनाकलोकपरिकीर्तित सच्चरित्रं कलत्रम् स्वर्गलोकपर्यन्तं यस्य कलत्रस्य कीर्तिः प्रसृता अस्ति तादृशस्य तादृशस्य कलत्रस्य तादृश्याः भार्यायाः तस्य कलत्रं रघुवंशपतेः रघुवंश रघुकुलतिलकस्य श्रीरामस्य कलत्रं कुत्र उपरुध्य अत्र लङ्कायाम् अन्वयः हे अविनीत आनाकलोकपरिकीर्तित सच्चरित्रं रघुवंशपतेः कलत्रम् अत्र उपरुध्य वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बन्धुं कथं यतेथाः त्वम् इति अन्वय अस्य भावार्थः अस्ति एतादृशं दुस्साहसं मा कुरु इति एव हनुमतः तात्पर्यं साक्षात् तत् न वदति यतः राक्षसराजं वदन्नस्ति अतः इङ्गितभाषया वदति चेदेव सः अवगच्छेत् इति हनुमतः चिन्तनम् अतः इङ्गिततया वद एवं करणं तव कृते बहु तव विषये बहु अपायकरमस्ति इति वदति हे दुर्विनीत रावण रघुवंशकेतोः रघुवंशतिलकस्य भार्यां सीताम् अत्र लङ्कायां निबद्धां कृत्वा स्थापनस्य तव अयं प्रयत्नः वस्त्रेण बद्ध्वा अग्निस्थापनप्रयत्नः इव दृश्यते यदि जीवितुकामोऽसि यदि जीवितुमिच्छति तर्हि तपःशीलाम् अग्नितुल्यां लोकत्रये प्रकीर्त्यमानां परमपवित्रां सीतां श्रीरामाय प्रत्यर्पय अन्यथा अनर्थः एव भविष्यति अत्र बहु सुष्ठु कृता कविना अग्निं कोऽपि बन्धुं प्रयत्नं करोति किम् इत्युक्ते सीता अग्निसदृशी अस्ति परमपवित्रा अस्ति पुनः अग्निः यथा वस्तु पावयति पवित्रं करोति तथैव भस्मसात् अपि कर्तुं शक्नोति किल सीता अपि तथैव परमपवित्रा परमकारुणिका सा किन्तु भवान् यदि एतादृशं दुस्साहसम् अपराधं कुर्वन् भवति तर्हि भवन्तं सा भस्मसात् कर्तुमपि शक्नोति, तादृशं सामर्थ्यम् अस्ति इति आञ्जनेयः वदति। व्याकरणभागम् अनन्तरं विस्तरेण पश्यामः। अग्रिमं प्रति गच्छामः। किञ्च पुनः अग्रे वदति, किञ्च इत्युक्ते अग्रे अपि पुनः आञ्जनेयस्य कथनमेव अनुवर्तते इति भावः। प्रेङ्खन्ति पिशिता शयारणमुखे,
प्रेङ्खन्ति पिशिता
शयारणमुखे, सौमित्रिपत्रिक्षतम्
सौमित्रिपत्रिक्षतम्,
त्वद्गात्रं परितः पतत्रिपरिषत् द्राक्पौलस्य पुलस्य वंशविलये, भाविते त्वत्र ते
संभाविते
नयनान्तवान्तसलिलम्,
कान्तानां इवापोदकम्।
अत्यन्तं सुन्दरः श्लोकः। अत्र आञ्जनेयस्य वचने चातुर्यमस्ति, कथनसामर्थ्यमपि अस्ति, यथा वाक्कुशलः सः। अतः कविः सुन्दरशब्दैः वर्णयति। किं वदति इति चेत्, हे रावण, तदेव न, तव बहु विध अपायाः सन्ति एवं करणे। प्रथमकारणम् उक्तवान्, साक्षात् अग्निः एव सीता, सा त्वां दग्धुमपि पारयति, अतः तथा मा कुरु। द्वितीयं वदति, यदि वचनम् अश्रुत्वा पुनः अपि तथैव करोषि तर्हि युद्धभूमौ तव मरणं भवेत्, युद्धं निश्चयेन भवेत् भवति, तदा लक्ष्मणस्य बाणाः त्वां विध्यन्ते, तथा लक्ष्मणबाणे बाणेन विद्धः त्वं यदा शरीरं मृतशरीरम् अधः पतति तदा पक्षिणः तद् मांसं भक्षितुम् आगच्छन्ति, तद् खादितुम् आगच्छन्ति, भक्षयितुम् आगच्छन्ति। पक्षिसमूहः पक्षिगणः यदा तव उपरि एवं भ्रमन्ति परिभ्रमन्ति तव शरीरस्य देहस्य मांसं भक्षयितुं, तदा तव उपरि आतपत्रं छत्रमिव तद् दृश्यं भवति। राज्ञः छत्रमेव किल तस्य चिह्नं, राजसि राजकीयं चिह्नं भवति, किन्तु अत्र तव कीदृशं चिह्नं भवति, तव मृतशरीरस्य उपरि पक्षीसमूहस्य भ्रमणमेव छत्रमिव तद् तव कृते कीर्तिदायकं चिह्नं भवति इति वदति आञ्जनेयः। अतः हे पौलस्य, हे कुलस्य कुलस्य नाशः तव कारणेन सम्भवेत्। तदा किं भवति, पुलस्त्य कुलस्य नाशः भवति, तव मरणं भवति, तव बन्धुजनानां मरणं भवति, तव पुत्राणामपि मरणं भवति, तदा तव कुले अग्रे कोऽपि न अवशिष्यते, कोऽपि जीवितः न स्यात्। तेन किं भवति, पितॄणां कृते उदकं दातुं न भवेत्। तादृशी स्थितिः यदा पितॄणां कृते पितृतर्पणजलं दातुमपि कोऽपि न भवति, तर्हि स्त्रीणां, तव कुलस्त्रीणां रोदनं यदा भवति, तासाम् अश्रुजलमेव पितृतर्पणरूपेण, तादृशी स्थितिः मा भवेत् इति आञ्जनेयः पदच्छेदपुरुषं प्रेङ्खन्ति पिशिताशया रणमुखे पौमित्रिपत्रिक्षतं त्वद्गात्रं परितः पतत्रिपरिषत् छत्रच्छविं मा कुलस्त्यवंशविलये सम्भाविते त्वत्कृते प्रान्तानां नयनान्तवान्तसलिलं मा भूत् निवापोदकम्। अत्र कानिचन पदानि सन्ति, तेषां पदानाम् अर्थं वयम् अवगच्छामः चेत् अन्वयकरणे कारल्यं भवति। प्रथमं प्रेङ्खन्ति इत्युक्ते भ्रमन्ति, प्रेङ्खति भ्रमति, अत्र शत्रुप्रयोगः प्रेङ्खन्ति स्त्रीलिङ्गशब्दः शत्रुप्रत्ययान्तशब्दः भ्रमति इति अर्थः। पिशिताशया, पिशितम् इत्युक्ते मांसं, मांसं बुभुक्षया, पिशिताशया आशया, मांसबुभुक्षया इति अर्थः। रणमुखे युद्धभूमौ सौमित्रि पत्रिक्षतम्, सौमित्रिः कः? सुमित्रायाः अपत्यं पुमान् लक्ष्मणः। पत्रि इत्युक्ते बाणः, पक्षः अस्य अस्ति इति पत्री भवति। बाणः अपि डयते किल, तस्य अधः पेदुरिव वयं पश्यामः, अतः एव बाणस्य नाम अपि पत्री भवति। पक्षिणः अपि पत्री इति भवति। लक्ष्मणबाणेन क्षतं, क्षतम् इत्युक्ते आहतं, विद्धम्, इञ्जियर्ड् इति अर्थः। त्वद्गात्रं परितः, तव शरीरं परितः, पतत्रिपरिषत्, परिषत् इत्युक्ते समूहः, विद्वत्परिषत् इति शृणुमः, त्रिलिङ्गशब्दः, अतः एव प्रेङ्खन्ति पतत्रिपरिषत्। पतत्रि इत्युक्ते पतत्री, नकारान्तपुल्लिङ्गः, पतत्रिन् शब्दः पक्षी इति अर्थः। पक्षः अस्य अस्ति इति पत्रं, पत्रम् अस्य अस्ति इति पत्री इति अपि भवति, पतत्री इति अपि भवति। पतनात् त्रायते इति पतत्रं किल, यथा मितात् त्रायते इति मित्रम्, यत्नात् त्रायते इति यन्त्रम्, स्नात् त्रायते इति मन्त्रः, तथा पतत्रम् इति पदमस्ति। पतनात् पक्षी यदा उड्डयते तदा अन्य विहगाः यदि भवन्ति, वयम् उपरि कूर्दनं कुर्मः चेत् झटिति एव पतामः किल, किन्तु पक्षिणं कः त्रायते? तस्य पक्षौ, पक्ष अस्ति इति कारणेन सः न पतति, अतः पतनात् त्रायते इति पतत्रम् इति पक्षः। पतत्रम् अस्य अस्ति इति पतत्री इति पक्षी भवति। पतत्रिपरिषत् पक्षिसमूहः, के पक्षिणः सामान्यतया मृतशवं प्रति आगच्छन्ति? गृध्रः, पल्चर्स् तादृशः, गृध्रप्रभृति पक्षिगणः, परिषत् गणः, पक्षिगणः। किं कुर्वन्ति? तादृशपक्षिगणः तव उपरि छत्रदृश्यं मा गच्छतु, छत्रच्छविं मा गमत्। छत्रच्छविः, छविः इत्युक्ते शोभा, राज्ञः कृते किं शोभनं? यदा राजा चलति तदा श्वेत आतपत्रं भवति, बृहत् श्वेतम् आतपत्रं सेवकाः तत् समीपे अनुचराः धृत्वा तेन सह चलन्ति। तद् महाराजस्य कृते, चक्रवर्तिनः कृते तद् राजकीयं गौरवास्पदं चिह्नं भवति। किन्तु अत्र नव मृतशरीरस्य उपरि यत् यः पक्षिगणः परिभ्रमति तादृशं दृश्यं मा भवतु इति वदत्। छत्रच्छविं, पक्षिगणः छत्रशोभां मा न प्राप्नोति, मा गमत्। वयं पूर्वमेव दृष्टवन्तः माङ्गीलुम् इति सूत्रेण मा गच्छतु इति अर्थः, न भवेत् इति अर्थः. लुङ् लकारस्य प्रयोगः भवति यदा अस्मिन् अर्थे भवति, आयोगे भवति, तर्हि लुङ् अर्थः न भवति, अद्यतनकालार्थः न भवति, मा भवतु इति लोट् अर्थः भवति. पुनः नमाङ् योगे इति सूत्रेण तत्र अगमत् तत्र अडागमस्य लोपः मागमत्. गीतायां श्लोकाः तथा सन्ति, वयं विस्तरेण पूर्वं दृष्टवन्तः, तद् टिप्पणीं वयं पुनः छत्रच्छविं मागमत् आतपत्रशोभां न प्राप्नोतु. पुनः अपि किं द्राक् शीघ्रमेव पदं द्राक् पौलस्त्य कुलस्त्योत्पन्न कुलस्त्य वंशविलये, विलयः इत्युक्ते अन्तः मरणं, प्रलयः विलयः. कुलस्त्य वंशविलये, कुलस्त्य वंशस्य विनाशे सम्भाविते प्राप्ते सति यदा कुलस्त्य वंशस्य विनाशः शीघ्रमेव भवेत् तदा कीदृशे कुलस्त्य वंशविलये त्वत्कृते. अत्र त्वत्कृते इत्युक्ते तव कृते इति अर्थः न, त्वया कृते, त्वया एव एषः विलयः रच्यमानः अस्ति, त्वमेव तव कुलस्य नाशं कुर्वन् अस्ति, त्वत् कृते, त्वया क्रियमाणे इति अर्थः. कान्तानां नयनान्तवान्तसलिलं नेत्राभ्यां श्रुतं फलम् आभूत् न जायेत, तथैव अभूत् इति लुङ्थे अभूत् निवापोद. निवापः इत्युक्ते पितृतर्पणजलं, पितृतर्पणं निवापः, पितृतर्पणजलं निवाप उदकं, निवापोदकम्. युद्धे सर्वे अपि यदि विनश्यन्ति तर्हि कुलस्त्रियः एव जीविताः भवेयुः. जलदातारः पुमांसः अपि न भवेयुः कुले, तर्हि स्त्रीणाम् अश्रुजलमेव पितृतर्पणजलं भवितुम् अर्हति. तादृशी मा भवतु कुले इति आञ्जनेयः तं वदति. आकाङ्क्षां पश्यामः पौलस्त्य, अत्र पश्यामः पौलस्त्य इति पदस्य प्रयोगम् आञ्जनेयः बहु युक्तप्रयोगः. पूर्वम् अविनीत एतादृशं इक्ष्वाकुकुलवधोः कुलवधूः अस्ति, तस्याः अपहरणं कृत्वा त्वम् अनर्थं कृतवान् असि इति उक्तवान्. अत्र पौलस्त्य इति सम्बोधनं किमर्थं करोति इत्युक्ते कुलस्य विषये स्मारयति आञ्जनेयः, कीदृशकुले त्वं जातः असि, क्षणं यावत् कुलविषये, कुलस्य गौरवविषये चिन्तय इति वदति. अतः एव पौलस्त्य इति पदस्य प्रयोगं करोति, कारणं मनुष्यः ऋणत्रयं स्वीकृत्य अस्मिन् लोके आगच्छति, देवऋणं, ऋषिऋणं, पितृऋणम्. देव प्रार्थनादिना कुलदेवस्य पूजनेन निर्यातं भवति, तस्य निर्यातनं भवति. पितृऋणं श्राद्धादिकर्मणा भवति, ऋषिऋणं वेद अध्ययनम् अथवा वेद अध्येतॄणां सहायकरणेन तस्य ऋणस्य निर्यातम्. यदि त्वम् एवं करोषि तर्हि तव कुलनाशः भवति, तव कारणेन कुलस्य नाशः इति तादृशम् अपराध, तादृशं महापातकं मा कुरु इति तावत् कुलं स्मर इति स्मारयन्नेव पौलस्त्य इति पदस्य प्रयोगः अत्र क्रियते. आगमत् न गच्छतु, कुत्र रणमुखे, का मागमत्, अत्र कर्तृपदस्य प्रश्नः का, पतत्रिपरिषत् इति अर्थः पतत्रिपरिषत् कर्तृपद कीदृशी पतत्रिपरिषत् परिषत् शब्दः स्त्रीलिङ्गशब्दः अतः कीदृशी प्रेङ्क्षन्ति परिभ्रमन्ति पतत्रिपरिषत् कया केन कारणेन किमर्थं तत्र परिभ्रमति पक्षिगणः विषिताशया मांसं भोक्तुम् इच्छया कुत्र कुत्र सः गणः पक्षिगणः कुत्र परिभ्रमति त्वद्गात्रं परितः तव शव मृतशरीरं परितः कीदृशं त्वद्गात्रं परितः सौमित्रिपत्रिक्षतं तव गात्रं परितः लक्ष्मणस्य बाणेन आहतं तव गात्रं परितः प्रेङ्खन्ती पतत्रिपरिषत् कां मागमत् छत्रच्छविं आतपत्रदशाम् आतपत्रदृश्यं मा प्राप्नोत् पुनः द्वितीय अन्वयः वाक्ये मा गमत् इति आसीत् मा भूत् अस्मिन् श्लोके वाक्यद्वयमस्ति अतः अन्वयद्वयं न भवतु किं मा भूत् नयनान्तवान्तसलिलम् अश्रुजलम् इति अर्थः नयनानां नयनतः श्रुतम् अश्रुजलम् कासां नयनान्तवान्तसलिलं कान्तानां नयनान्तवान्तसलिलं किं मा भूत् निवापोदकं मा भूत् निवापः इत्युक्ते पितृतर्पण निवापोदकं पितृतर्पणजलं कदा निवापोदकं मा भूत् द्राक् शीघ्रमेव पुलस्त्यवंशविलये सम्भाविते सति यदा पुलस्त्यवंशस्य नाशः भवति तदा कीदृशे पुलस्त्यवंशविलये त्वत्कृते त्वया सम्पद्यमाने अस्मिन् विनाशे इत्यर्थः अन्वयः रणमुखे सौमित्रिपत्रिक्षतं त्वद्गात्रं परितः पिशिताशया प्रेङ्खन्ती पतत्रिपरिषत् छत्रच्छविम् आगमत् पौलस्य द्राक् भाविते त्वत्कृते पुलस्त्यवंशविलये सति कान्तानां नयनान्तवान्तसलिलम् इवापोदकम् आभूत् भावार्थः यदि श्रीरामाय सीतां न प्रत्यर्पयसि तर्हि एतत् सर्वं साक्षात् आञ्जनेयेन नोक्तम् एतत् सर्वम् अस्माभिः इत्युक्ते तात्पर्यमस्ति कथनस्य साक्षात् किं व्यञ्जनार्थः लक्ष्यार्थं पश्यामः चेत् एवं वयं वक्तुं शक्नुमः वाच्यार्थः तु साक्षात् लक्ष्मणस्य बाणेन त्वमाहतः भवसि इति अर्थः यदि श्रीरामाय सीतां न प्रत्यर्पयसि तर्हि युद्धभूमौ लक्ष्मणस्य बाणैः आहतं शरीरं युद्धभूमौ पतेत् तदा मांसभक्षणाभिलाषेण तव देहं तव देहस्य उपरि परिभ्रमन् गृध्रादिपक्षिगणः तव देहस्य उपरि आतपत्रदशां न प्राप्नुयात् औलस्य कुलजात तव कृत्येन अनेन तव अनेन कृत्येन कृत्यम् इत्युक्ते क्रिया कर्म कार्यं त्वया सह त्वदीयं कुलस्य कुलमपि प्रणश्येत् तदा पितॄणां कृते एकः अपि जलदाता न अवशिष्येत तदा विलपन्तीनां स्त्रीणाम् अश्रुजलमेव मृतेभ्यः पितृभ्यः तर्पणजलं अतः प्रभावितात् पितृणात् स्वं स्वकुलं च परिरक्ष इत्यर्थः कुलनाशकः मा भवतु पितृणं मा प्राप्नुहि इति अग्रिमं श्लोकम् इतोपि एकः श्लोकः तत् पठित्वा वयं बद्धादरोऽपि परदार परिग्रहे त्वम् इक्ष्वाकुनायककळत्रम् अनार्यमागाः वाताशनोऽहम् इति किं विनतासु तस्य
वाताशनोऽहमिति किं विनतासु तस्य
श्वासानिलाय भुजगस्पृहयालुतालुः अत्र अत्यन्तं सुन्दरः दृष्टान्तः कविना दीयते. यद्यपि आञ्जनेयः पुनः कथयति रावणाय, यद्यपि परदारागमनं, परदाराणाम् अपहरणम् इति यद्यपि तव स्वभावः, तथापि अत्र त्वया उचितं न कृतं. यतः इक्ष्वाकुकुलनायकस्य भार्यामेव त्वम् अत्र अपहृतवान्, तत् तादृशम् अपराधम् मा कुरु, तादृशं दोषं मा कुरु इति वदति. सः वदति यद्यपि सर्पः, सर्पस्य एकं नाम अस्ति वायुभुक्, वायुभुङ्क्ते, वायुं भुङ्क्ते इति वायु, वाताशनः वातम् अश्नाति, वाताशनः, वाताशनः सर्पः इति तु ज्ञातमेव, किन्तु सामान्यं सः वातम् अश्नाति. गरुडस्य श्वासवातं भोक्तुं सर्पः गरुडसमीपं गच्छेत् किं? न खलु गच्छेत्. परम भीतः भवति गरुडात् सर्प, अतः गरुडस्य समीपं कदापि अहं गरुडस्य श्वासः श्वासवायुं भोक्तुम् इच्छामि इति कृत्वा किं सर्पः गरुडस्य समीपं गच्छेत्? न गच्छेत्. तादृशः, तादृशं त्वमपि सीतापहरणकार्यम् इति एतम् उत्तमपराधं मा कुरु, शीघ्रमेव तं तद् परिहर, तस्य परिहारम् अन्विष्य इति वदति. पदच्छेदः बद्धादरः अपि परदारपरिग्रहे त्वम् इक्ष्वाकुनायककळत्रम् अनार्य मागाः वाताशनः अहम् इति किं विनता श्वासानिलाय भुजगः स्पृहयालुतालुः अध्याहार्यम् प्रतिपदार्थः अपि विहितासक्ति बद्धः आदरः एव कस्मिंश्चित् विषये कोऽपि बहु आग्रहवान् भवति अथवा तद् कर्तुम् इच्छति पुनः पुनः करोति चेत् बद्धादरः. शिष्यः पठने बद्धादरः अस्ति, ज्येष्ठानाम् अभिवादने बद्धादरः अस्ति सः बालकः इति, किन्तु एषः अनार्यः अस्ति किल रावणेन सम्बोधनं करोति, एषः कीदृशः बद्धादरः, कस्मिन् विषये? परदारपरिग्रहे. परस्त्री त्वं, त्वम् इत्युक्ते भवान् रावणः, इक्ष्वाकुकुलनायककलत्रं सूर्यवंशं प्रवर्त्य पत्नी अनार्य विवेकशून्य सम्बोधनं करोति, मागाः न उपगच्छ अथवा मा उपगच्छ, अहं वायुभुक् किम् इति चिन्तयन् किं विनतासुतस्य, विनतासुतः गरुडः, विनतासुतस्य गरुडस्य श्वासानिलाय श्वासमारुताय श्वासपवनाय भुजग सर्प स्पृहयालुः भवति किं त्रिशितः भवति किं तालु इत्युक्ते मुखभागः स्पृहयते इत्युक्ते इच्छति वाञ्छति यस्य मुखं तद् आस्वदितस्य जिह्वा तत् तादृश आस्वादनं कर्तुं प्रयतते इति भावः आकाङ्क्षां पश्यामः अनार्य इति सम्बोधनं पुनः पूर्ववत् मा गाः मा प्राप्नुहि लुङ् प्रयोगः लोटर्थे कः त्वं मा गाः कीदृशः त्वं बद्धादरः कुत्र बद्धादरः अनधारपरिग्रहे किं मा गाः कर्मपदम् इक्ष्वाकु गणनायककलत्रम् कलत्रम् इति पदं पदं प्रयुक्तम् इति कारणेन किम् पुनः अध्याहारेण भवति किम् इति क्रियापदं वयम् अध्याहारं कः भुजगः कीदृशः भुजगः स्पृहयालुः भुजगः किमर्थं श्वासानिलाय अनिलः इत्युक्ते पवनः अनिति अनेन अनिलः अनिति इत्युक्ते जीव वायुः जीवनार्थम् आधारभूत अंशः श्वास अनिलः श्वासवायुः कस्य श्वासानिलाय आताशनः अहं वायुभुकम् अन्वयः परिग्रहे बद्धादरमपि इक्ष्वाकुकुलनायकम् मागाः वाताशनः अहम् इति मन्यमानः विनतासुतस्य श्वासानिलाय किं स्पृहयालु तालुः भवेत् न भवेत् अत्र तालु शब्दः नपुंसकलिङ्गशब्दः स्पृहयालु तालुः इति पुल्लिङ्गरूपं कथं प्राप्तम् इत्युक्ते स्पृहयालुः तालु स्पृहयालु तालु ृहयालुः इत्युक्ते लुब्धः इच्छुकः भवति तथा स्पृहा अस्ति इच्छा अस्ति सः स्पृहयालु स्पृहयालु यस्य तालु सः स्पृहयालु तालुः इति बहुव्रीहि भावार्थः हे अविवेकिन् यद्यपि परस्त्रीषु आसक्तिमान् त्वं तथापि सीतां सामान्यां स्त्रीं मत्वा तां मा प्राप्तां मा उपसर्प इति अर्थः सा परमवीराणां इक्ष्वाकुवंशीयानां कुलवधूः सर्पः वायुः हेतोः गरुडस्य श्वासवायुपानाय तमेव न खलु गच्छेत् तथैव तव इदं साहसं परित्यज अन्यथा तव नाशः निश्चितः एव इति आञ्जनेयः रावणं वदति तथैव अत्र परदारपरिग्रहे इति समस्तपदं किन्तु नित्य बहुवचनं पुल्लिङ्गे भवति किन्तु पत्नी इति पदं सूचयति दाराः दारान् इति अतः परेषां दाराः परदाराः परदाराणां परिग्रहः इति विग्रहवाक्ये भवति विग्रहवाक्यानि दर्शितानि सन्ति तद् वयं समापयामः पुनः अग्रिमसप्ताहे मेलिष्यामः सर्वे भवन्तु सुखिनः सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु
शुभरात्रि।